इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी ह्यः स्वकीये आकाशवाण्याः प्रसारिते मन की बात इत्यस्मिन् कार्यक्रमे देशवासिनः प्रति आभारभावान् व्यक्तीकृतवान्। तेन संविधान संहितां प्रति, राष्ट्रस्य लोकतांत्रिक व्यवस्थां प्रति च जनविश्वासाय सामान्य लोकसभानिर्वाचनानन्तरं प्रसारिते अस्मिन् एकादशोत्तर एकशततमे मन की बात इति कार्यक्रमे राष्ट्रं सम्बोधयता उक्तं यत् अस्य वर्षस्य निर्वाचनं 65 कोटि जनैः मतदानेन सहैव विश्वस्य सर्वातिबृहत्तमं निर्वाचनम् आसीदिति। श्रीमोदिना अस्मिन् वर्षे पर्यावरण दिवसावसरे समारब्धस्य एक पेड़ मा के नाम इति कार्यक्रमस्य विषयेऽपि चर्चा कृता। तेनोक्तं यत् स्वकीयया मात्रा सह उत वा मातुः नाम्ना एकः पादपः रोपणीयः इति। योगस्य विषये चर्चां कुर्वन् प्रधानमन्त्री उक्तवान् यत् आसंसारं दशमः विश्वयोगदिवसः सोत्साहेन परिपालितः। तेनोक्तं यत् योगदिवसस्य आयोजनम् अग्रे वर्धते तथैव नूतन कीर्तिमद् अपि संरचयद् अस्ति। प्रधानमन्त्रिणा एतदपि उक्तं यत् अग्रिममासस्य अस्मिन्नेव कालांशे पेरिस ओलंपिक इति क्रीडा कुम्भः समारप्स्यति। तेनोक्तं यत् अस्मिन् क्रीडाकुम्भे कतिपय प्रकरणानि प्रथमतया दृष्टिपथं समायास्यन्ति। प्रधानमन्त्री उक्तवान् यत् आराष्ट्रम् इच्छति यत् क्रीडकाः पदकानि संगृह्य प्रत्यावर्तयेयुः इति। प्रधानमन्त्री मोदी उक्तवान् यत् कुवैत प्रशासनेन स्वकीये आकाशवाणी कार्यक्रमे एकः कार्यक्रमः हिन्दी भाषायाः अपि समारब्धोऽस्ति। संस्कृत वार्ता सम्प्रसारणस्य अयं 50वां वर्षः अस्ति इति मत्वा प्रधानमन्त्रिणा आकाशवाणी परिवारं प्रत्यपि शुभाशंसाः सम्प्रेषिताः सन्ति। त्रयः नवीनाः आपराधिक विधयः भारतीय न्याय संहिता 23-2000, भारतीय नागरिक सुरक्षा संहिता 23-2000 तथा च भारतीय साक्ष्य अधिनियम 23-2000 अद्य आरभ्य प्रवर्तन्ते। भारत सर्वकारेण राज्यैः केन्द्र प्रशासित राज्यैः च सह नियमितरूपेण सभाः कृताः सन्ति। ते च नूतनानाम् आपराधिक विधीनां कार्यान्वयनाय प्रौद्योगिक्याः क्षमतानिर्माणस्य जागरूकता उत्पन्नस्य च दृष्ट्या पूर्णतया सज्जाः सन्ति। यो हि नवीनापराधिक विधिषु अन्वेषणे विवेचने न्यायालये कार्याचरणेषु प्रौद्योगिक्याः उपरि बलं दत्तम्। अतः राष्ट्रिय अपराध अभिलेख अभिकरणेन एनसीआरबी इत्यनेन विद्यमान अपराध आपराधिक निरीक्षण संजाल प्रणाल्याः सीसीटीएनएस अनुप्रयोगे 23 कार्यात्मक संशोधनं कृतमस्ति। नूतन व्यवस्थायां निर्विघ्नतया संक्रमणाय राज्येभ्यः केन्द्रशासित प्रदेशेभ्यः च सहायतां प्रददाति। गतसायं नवदिल्ल्यां प्रेषण समारोहस्य समये क्रीडामन्त्री डॉ मनसुख मंडाविया, पेट्रोलियम मन्त्री हरदीप सिंह पुरी च पेरिस ओलंपिक क्रीडायाः कृते भारतीय दलस्य औपचारिक वस्त्रस्य अपि च क्रीडक सामग्रीणाम् अनावरणं कृतवन्तौ। बीसीसीआई इत्यनेन बार्बाडोस नगरे पुरुषाणां 20-20 आईसीसी विश्व चषक प्रतिस्पर्धा विजयानन्तरं भारतीय दलाय 25-100 कोटि रूप्यकाणां पुरस्कार राशेः घोषणा कृता। एकस्मिन् सामाजिक अन्तर्जाल सन्देशे बीसीसीआई सचिवः जयशाहः पुरस्कार राशेः घोषणा कृतवान् इति वार्ताः।